इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीतत्रिपाठी। आदौ मुख्य वार्ताः। निर्वाचनायोगेन असम केरल पुदुचेरी तमिलनाडु राज्यानां विधानसभा निर्वाचनानां घोषणा कृता। पश्चिम बंगाल राज्ये निर्वाचनं द्वयोः चरणयोः भविष्यति। असम केरल पुदुचेरी राज्येषु नवमे दिनांके, तमिलनाडु राज्ये त्रयोविंशति दिनांके च मतदानं भविष्यति। पश्चिम बंग प्रदेशे अग्रिमे मासे त्रयोविंशति ऊनविंशति दिनांके च मतदानं भविष्यति। मतानां गणना मई चतुर्थे दिनांके भविष्यति। सर्वकारेण पीएनजी एवं एलपीजी सम्पर्कयुतान् गृहान् तत्क्षण प्रभावेण स्वकीयं एलपीजी सम्पर्कं समर्पयितुं निर्दिष्टम्। नेपालदेशस्य गोरखामण्डले मार्गदुर्घटनायां सप्त भारतीयाः तीर्थयात्रिणः मृताः। सीबीएसई इत्यनेन पश्चिम एशियायां श्वः आरभ्य अग्रिममासस्य दशदिनाङ्कपर्यन्तं द्वादशीकक्षायाः परीक्षा निरस्तीकृता। अपि च ईरानदेशस्य खार्गद्वीपस्य उपरि आक्रमणार्थं यूएई इत्यनेन स्वक्षेत्रस्य अनुमत्यै तेहरानेन आरोपितः। यूएई इत्यनेन आरोपं निराकृतम्। अथ वार्ताः विस्तरेण। निर्वाचनायोगेन अद्य असम केरल पुदुचेरी तमिलनाडु राज्येषु एकचरणस्य विधानसभा निर्वाचनस्य घोषणा कृता। पश्चिम बंग प्रदेशे तु द्वयोः चरणयोः निर्वाचनं भविष्यति इति। अद्य दिल्ल्यां पञ्चराज्येभ्यः केन्द्रशासित प्रदेशाय च निर्वाचन कार्यक्रमस्य घोषणां कुर्वन् मुख्य निर्वाचनायुक्तः ज्ञानेश कुमारः अवदत् यत् असम केरल पुदुच्चेरी राज्येषु अप्रैल मासस्य नवमे दिनांके मतदानं भविष्यति। तमिलनाडुराज्ये अप्रैल मासस्य त्रयोविंशति दिनांके मतदानं भविष्यति। पश्चिमबंगप्रदेशे अग्रिमे मासे त्रयोविंशति ऊनविंशति दिनांके च मतदानं भविष्यति। चतुर्णां राज्यानां एकस्य केन्द्रशासित प्रदेशस्य च मतानां गणना मई मासस्य चतुर्थे दिनांके भविष्यति। श्रीकुमारः अवदत् यत् निर्वाचन कार्यक्रमस्य घोषणायाः अनन्तरं एतेषु राज्येषु केन्द्रशासित प्रदेशे च तत्क्षण प्रभावेण आदर्शाचार संहिता प्रवर्तितास्ति। केन्द्रीय पेट्रोलियम प्राकृतिक गैस मन्त्रालयः पाइप्ड नेचुरल गैस पीएनजी एवं लिक्विफाइड पेट्रोलियम गैस एलपीजी इत्येतयोः सम्पर्कयुतान् गृहान् तत्क्षण प्रभावेण स्वकीयं एलपीजी सम्पर्कं समर्पयितुं निर्दिष्टवान्। ह्यः प्रसारितायाम् अधिसूचनायां मन्त्रालयः अवदत् यत् पीएनजी सम्पर्कयुक्तः जनः गृहस्य एलपीजी सम्पर्कं धारयितुं वा सर्वकारीय तैलसमवायेभ्यः अथवा तेषाम् अधिकृत वितरकात् एलपीजी सिलेण्डर इत्यस्य पुनः पूर्तिं स्वीकर्तुं वा न अनुमन्यन्ते। एतादृशाः उपभोक्तारः स्वस्य एलपीजी सम्पर्कं तत्क्षणमेव समर्पयन्तु। तैलविपणनसंस्थाः अपि निर्देशिताः यत् नूतनान् एलपीजी सम्पर्कान् न प्रदास्यन्ते। सर्वकारः अवदत् यत् गृहगैस इत्यस्य द्विगुणापूर्तिं निवारयितुं तथा च पीएनजी सम्पर्कं न प्राप्तेभ्यः गृहेभ्यः एलपीजी सिलेण्डर इत्यस्य उपलब्धता सुनिश्चेतुम् एतत् आवश्यकमस्ति। पश्चिम एशियायां विद्यमान संकटस्य कारणात् वैश्विक ईंधन आपूर्तौ व्यवधानस्य मध्ये एषा सूचना आगता। अत्रान्तरे भारतस्य कूटनीति प्रयासानामनन्तरम् ईरानदेशः भारतीयध्वजयुक्तं द्वे एलपीजी वाहकं नौकायाने होर्मुज्जलसन्धिमार्गेण गन्तुं प्राददत्। नौवहनमन्त्रालयस्य विशेष सचिवः राजेशकुमारसिन्हा अवदत् यत् अधुना नौकायाने गुजरातस्य मुन्द्रा कन्दला नौकाश्रययोः सन्ति। प्रियाः श्रोतारः, संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीयतन्त्रांशे अपि उपलब्धो भविष्यति। नेपालदेशे गतरात्रौ गोरखामण्डले लघु बस यान दुर्घटनायां सप्त भारतीयाः मृताः, अन्ये च नैके व्रणिताः। आरक्षकानुसारं विद्युत लघु बस याने 16 जनाः आसन्, यस्मिन् 14 भारतीय तीर्थयात्रिणः मन कामना देवालयात् प्रत्यागताः आसन्। यदा शहीद लखन ग्रामीण नगरपालिकायाः पंक्तौ यानं मार्गात् व्यतिक्रमम् अभवत्। वाहनं पर्वतस्य पार्श्वे प्रायः 200 मीटर अधः पतितम्। दुर्घटनायां सप्तभारतीयाः नागरिकाः घटनास्थले एव मृताः इति आरक्षकाः सूचितवन्तः। मृतेषु द्वे महिले पञ्चपुरुषाः च आसन्, ये पूजायै मन्दिरे गताः आसन्। अन्य सप्त यात्रिणः व्रणिताः रक्षिताश्च। केन्द्रीय माध्यमिक शिक्षा परिषदा CBSE इत्यनेन पश्चिम एशियायां श्वः आरभ्य अग्रिममासस्य दशदिनाङ्कपर्यन्तं द्वादशी कक्षायाः परीक्षा निरस्तीकृता। पूर्वं स्थगिताः परीक्षाः अपि निरस्ताः भविष्यन्ति इति CBSE इत्यनेन उक्तम्। पश्चिम एशियायाः क्षेत्रे द्वादशी कक्षायाः अभ्यर्थीनां कृते परिणाम घोषणायाः पद्धतिः यथाकाले पृथक् अधिसूचितः भविष्यति इति सूचितम्। संयुक्त अरब अमीरात देशः ईरानस्य स्थानानां विरुद्धं प्रक्षेपास्त्राणां प्रहारार्थं स्वक्षेत्रस्य उपयोगाय अनुमतिं दत्तवान् इति ईरान देशस्य आरोपानन्तरं गल्फक्षेत्रे विवादः वर्धितास्ति। ईरान देशस्य विदेशमन्त्रिणा सईद अब्बास अराघची इत्यनेन आरोपितं यत् रास अल खैमाह नगरे तथा दुबई नगरस्य समीपे स्थितेषु हिमार्श रॉकेट प्रणाल्या खार्ग द्वीपे तथा अबू मूसा द्वीपे च रात्रौ आक्रमणानि प्रारब्धानि इति। ईरान देशस्य संयुक्त राज्य अमेरिका इज़राइल संघस्य च मध्ये संघर्षः निरन्तरं विस्तृतः भवति, येन सम्पूर्णे गल्फ प्रदेशे अस्थिरतायाः आशंका वर्तते। कजाकिस्तान देशस्य जनाः नूतन संविधानस्य विषये जनमत संग्रहाय मतदानं कुर्वन्तः सन्ति, येन मध्य एशियायाः बृहत्तमे देशे राष्ट्रपतिः कासिम जोमार्ट टोकायेव इत्यस्य अधिकारं सुदृढं भविष्यति। एतेन प्रस्तावेन कजाकिस्तान देशस्य उभये सदने एकस्मिन् संस्थायां विलीनीकर्तुं शक्नोति, तथा च उपराष्ट्रपतिपदस्य पुनर्स्थापनेन सह सर्वे सर्वकारीय अधिकारिणां नियुक्तेः अधिकारं राष्ट्रपतिः विस्तारयितुं शक्नोति। भारत ऋतु विभागेन श्वः यावत् दिल्ली, चंडीगढ़, हरियाणा, पंजाब, उत्तर प्रदेश, उत्तराखंड, जम्मू कश्मीर इत्येतेषु प्रदेशेषु वृष्ट्याः ओलावृष्ट्या सह गर्जनस्य नारंगवर्णीया पूर्वसूचना प्रदत्तास्ति। श्वः यावत् अरुणाचल प्रदेशस्य, असम राज्यस्य, मेघालयस्य च पृथक् पृथक् स्थानेषु अपि प्रचण्ड वृष्टिः भविष्यति इति ऋतु विभागेन पूर्वानुमितम्। अत्रांतरे विभागेन उक्तं यत् गुरुवासर पर्यन्तं जम्मू कश्मीर, लद्दाख, हिमाचल प्रदेश, उत्तराखण्ड राज्येषु विद्युद्योतनेन सह वृष्टेः संभावना अस्ति। केरल, माहे, नागालैंड, मणिपुर, मिजोरम, त्रिपुरा इत्येतेषु प्रदेशेषु अपि एतादृशेः स्थितेः अपेक्षा अस्ति। IMD इत्यनेन उक्तं यत् अस्मिन् दिने विदर्भस्य उपरि उष्णतरंगस्य स्थितिः अपेक्षिता अस्ति इति। प्रियाः श्रोतारः, संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अपि च newsonair चलदूरभाषीयतन्त्रांशे अपि उपलब्धो भविष्यति। मुख्यवार्ताः पुनः एकवारम्। निर्वाचनायोगेन असम, केरल, पुदुचेरी, तमिलनाडु राज्यानां विधानसभा निर्वाचनानां घोषणा कृता। पश्चिम बंगाल राज्ये निर्वाचनं द्वयोः चरणयोः भविष्यति। असम, केरल, पुदुचेरी राज्येषु नवमे दिनांके, तमिलनाडु राज्ये त्रयोविंशति दिनांके च मतदानं भविष्यति। पश्चिम बंग प्रदेशे अग्रिमे मासे त्रयोविंशति ऊनविंशति दिनांके च मतदानं भविष्यति। मतानां गणना मई चतुर्थे दिनांके भविष्यति। सर्वकारेण PNG एवं LPG संपर्कयुक्तान् गृहान् तत्क्षणप्रभावेण स्वकीयं LPG संपर्कं समर्पयितुं निर्दिष्टम्। नेपालदेशस्य गोरखामण्डले मार्गदुर्घटनायां सप्त भारतीयाः तीर्थयात्रिणः मृताः। CBSE इत्यनेन पश्चिम एशियायां श्वः आरभ्य अग्रिममासस्य दशदिनाङ्कपर्यन्तं द्वादशी कक्षायाः परीक्षा निरस्तीकृता। अपि च ईरान देशस्य खार्ग द्वीपस्य उपरि आक्रमणार्थं UAE इत्यनेन स्वक्षेत्रस्य अनुमत्यै तेहरानेन आरोपितं। UAE इत्यनेन आरोपं निराकृतम् इति वार्ताः।